ಸಿದ್ಧಾಂತಕೌಮುದೀಯಂಜರಸ್ಯತೆ ಭಾರತ ಪ್ರಕರಣಕ್ಕೆ ಟೀಕಾ ಹಾಗೆ ಅಂತಿಮ ಘಟ್ಟೆ ಗತವರ್ಗೆ ವಾಕ್ಯಸ್ಯ ವಿಷಯ ಅಧೀತಂ ಹಿನ್ನಾಮ ವಾಕ್ಯಂ ತತ್ರ ಪರಸ್ಪರಂ ಕ್ರಿಯಾಕಾರಕಯೋಃ ಕೀದೃಶ ಸಂಬಂಧ ಇತಿ ಅಧೀತಂ ವಾಕ್ಯಂ ತತ್ರ ಪದಸಮೂಹ ವಾಕ್ಯಂ ಇತಿ ಪ್ರಥಮ ಲಕ್ಷಣ ತತಃ ಪರಿಷ್ಕೃತಂ ಲಕ್ಷಣಂ ಭವತಿ ಏಕಕಿಂ ವಾಕ್ಯಂ ಅಥವಾ ಕ್ರಿಯಾ ಕಾರಕಾನ್ವಿತ ಕ್ರಿಯಾವಾಕ್ಯಂ ಇತಿ ನಿರ್ಣಯ ಕೃತಃ ಕಾರಕೈಃ ಸಹಿತ ಕ್ರಿಯಾ ಏವ ವಾಕ್ಯಂ ಇತಿ ಉಚ್ಯತೆ ಕಿಂ ನಾಮ ಕಾರಕಂ ಚೇತ್ ಕ್ರಿಯಾನ್ವಯ ಕಾರಕಂ ಕ್ರಿಯೆಯ ಸಹ ಯತ್ ಸಂಬಂಧಂ ಪ್ರಾಪ್ತವತಿ ತದೇವ ಕಾರಕಂ ಚೇತ್ ಆದಶಂಕ ಕಾರಕಂ ಶೋಧಾತ್ ಭವತಿ ಷಟ್ ಕಾರಕಾಣಿ ಸಂತಿ ಕರ್ತೃಕಾರಕಂ ಕರ್ಮಕಾರಕಂ ಕರಣಕಾರಕಂ ಸಂಪ್ರದಾನಕಾರಕಂ ಅಪಾದಾನಕಾರಕಂ ಅಧಿಕರಣಕಾರಕಂ ಇತಿ ತೇಷಾಂ ಕಾರಕಾಣಾಂ ಕಿಂಚಿತ್ ಉದಾಹರಣಮಿತಿ ದೃಷ್ಟ ಇದಾನೀ ವಸ್ತುತಃ ಕಾರಕ ಪ್ರಕರಣೆ ಪ್ರವೇಶ ವಾಕ್ಯಂ ತತ್ರ ವಾಕ್ಯೆ ಕಾನಿ ಪದಾನಿ ಸಂತಿ ತೇಷಾಂ ಕಃ ಅರ್ಥಃ ಇತ್ಯಾದಿ ಕಿಂಚಿತ್ ವಿಚಾರಣೆ ಪದಂ ನಾಮ ಕಿಂ ಇತ್ಯೇತಿ ಪ್ರಶ್ನ ಪದಂ ನಾಮ ಕಿಂ ಇತ್ಯತ್ರ ಭಿನ್ನೇಷು ಶಾಸ್ತ್ರೇಷು ಭಿನ್ನಾನಿ ಲಕ್ಷಣಾನಿ ದೀಯಂತೆ ಇದರಲ್ಲಿ ವ್ಯಾಕರಣಶಾಸ್ತ್ರೆ ಪದಸ್ಯ ಲಕ್ಷಣ ಭಿನ್ನ ಅರ್ಥಶಾಸ್ತ್ರೆ ಪದಸ್ಯ ಲಕ್ಷಣ ಭಿನ್ನ ಇತ್ಯಾದಿ ವ್ಯಾಕರಣಶಾಸ್ತ್ರವನ್ನು ಕಿಂ ನಾಮ ಪದಂ ಇತಿ ಚೇತ್ ಸೂಕ್ಷಿಮಾಂತಂ ಪದಂ ಇತ್ಯತೆ ಸಂಜ್ಞಾಸೂತ್ರ ಅಧ್ಯಾಯ್ಯಾಃ ಪ್ರಥಮಾಧ್ಯಾಯೇ ಚತುಷ್ಪಾದೆ ಸೂಕ್ಷಿಮಾಂತಂ ಪದಂ ಬಹು ಸರಳ ಸುಬಂತಂ ಕಿನಂತಂ ಚ ಪದಸಮಯೇ ಸ್ಯಾತ್ ಪದಂ ನಾಮ ಸುಬಂತಂ ಭವೇತ್ ಅಥವಾ ಕಿನಂತಂ ಭವೇತ್ ಸುಬಂತಸ್ಯ ಪದಂ ಇತಿ ಉಚ್ಯತೆ ಕಿನಂತಸ್ಯ ವಾ ಪದಂ ತೇನ ಕಿಂ ಅಭೂತ್ ಸಂಸ್ಕೃತವಾಂಗ್ಮಯ ವ್ಯಾಕರಣಾನುಸಾರ ಸಂಸ್ಕೃತವಾಂಗ್ಮಯ ಪ್ರಯುಜ್ಯಮಾನಃ ಸರ್ವೇಪಿ ಶಬ್ದಾಃ ಸುಬಂತಾಃ ಭವೇಯುಃ ಅಥವಾ ಕಿನಂತಾಃ ಏತದ್ಭಿನ್ನಂ ಪದಂ ನಾಸ್ತ್ಯೇವ ಯದ್ಯಪಿ ಅಸ್ಮಾಭಿಃ ಪೂರ್ವಂ ಅಧೀಯತೆ ಸುಬಂತಂ ತಿನಂತಂ ಅವ್ಯಯಂ ಇತಿ ಅಧೀಯತೆ ಸುದಂತಾಃ ತದ್ಧಿತಂತಃ ಇತ್ಯಾದಿ ಇತ್ಯಾದಿನ ಭಿನ್ನಂ ವರ್ಗೀಕರಣಂ ಅಧೀಯತೆ ತಥಾಪಿ ವಸ್ತುತಃ ಅಂತೆ ಸರ್ವೇಪಿ ಶಬ್ದಾಃ ಸುಬಂತಾಃ ಭವಂತಿ ಅಥವಾ ತಿನಂತಾಃ ದೇರ್ ಇಸ್ ನೋ ಎಕ್ಸೆಪ್ಷನ್ ಆಲ್ ವರ್ಡ್ಸ್ ವಿಚ್ ಆರ್ ಯೂಸ್ಡ್ ಇನ್ ಸಂಸ್ಕೃತ್ ಹ್ಯಾಸ್ ಟು ಬಿ ನೆಸೆಸರಿ ಅಂಡ್ ದಟ್ ಈದರ್ ಆಫ್ ದಿ ಹ್ಯಾಸ್ ಟು ಬಿ ಈದರ್ ಸುಬಂತ ಅಥವಾ ತಿನಂತ ಅವ್ಯಯಾನ್ಯತಿ ಸುಬಂತಾನ್ಯೇವ ಅಗ್ರೆ ಪಶ್ಯಾಮ ಅವ್ಯಯಾನಾಮಿ ಸುಪ್ರತ್ಯಯೋತ್ಪತ್ತಿ ಭವತಿ ಲೋಪಃ ಭವತಿ ಅತಃ ಅವ್ಯಯಾನ್ಯತಿ ಸುಬಂತಾನಿ ಕೃದಂತಾಃ ಅಪಿ ಸುಬಂತಾಃ ತತಃ ಸಜ್ಜಿತಾಂತಾಃ ಅಪಿ ಸುಬಂತಾಃ ಸರ್ವೇಪಿ ಸುಬಂತಾಃ ಇವ ಸಮಾಸಾಃ ಸರ್ವೇ ಕಿಂಗಂತಾಸ್ತು ಕ್ರಿಯಾಪದಾನಿ ಭಿನ್ನಾನಿ ಕಿಮರ್ಥಮೇವಂ ಸುಬಂತತ್ವಂ ಕಿಂಗಂತತ್ವಂ ವಾ ಭವೇದೇವ ಇತಿ ಚೇತ್ ಅಪದಂ ನ ಪ್ರಯುಂಚೀತ ಇತಿ ನಿಯಮ ಅಪದಂ ಎಷ್ಟು ಎಷ್ಟು ಪದಸಮಯ ನಾಸ್ತಿ ಪದತ್ವ ನಾಸ್ತಿ ತಕ್ಷ ಪ್ರಯೋಗ ನ ಕರಣೀಯ ಪೂರ್ಣ ಯತ್ ಪದಂ ಚಿಂತ್ಯತೆ ತಕ್ಷೇವ ಪ್ರಯೋಗ ಕರಣೀಯ ಇತಿ ಶಾಸ್ತ್ರೀಯ ನಿಯಮ ಅದೇ ಉಚ್ಯತೆ ನಾಪಿ ಕೇವಲ ಪ್ರಕೃತಿ ಪ್ರಯೋಕ್ತವ್ಯ ನಾಪಿ ಕೇವಲ ಪ್ರತ್ಯಯ ಇತಿ ರಾಮ ಇದು ಪ್ರಾತಿಪದಿಕಂ ಅಸ್ತಿ ಕೇವಲಸ್ಯ ಪ್ರಾತಿಪದಿಕಸ್ಯ ಉಪಯೋಗ ನ ಭವೇತ್ ಸೊ ಇದು ಪ್ರತ್ಯಯ ಅಸ್ತಿ ಕೇವಲಸ್ಯ ಪ್ರತ್ಯಯಸ್ಯಾಪಿ ಪ್ರಯೋಗ ನ ಭವತಿ ರೈಟ್ ದಟ್ ಇಸ್ ಬಿಕಾಸ್ ದ ಪ್ರಕೃತಿ ಪ್ರತ್ಯಯ ಇಸ್ ಆಲ್ ಓನ್ಲಿ ಸಮಥಿಂಗ್ ವಿಚ್ ಇಸ್ ಜನರೇಟೆಡ್ ಆರ್ಟಿಫಿಷಿಯಲಿ ಪ್ರಕೃತಿ ಪ್ರತ್ಯಯ ವಿಭಾಗ ಇಸ್ ನಾಟ್ ನ್ಯಾಚುರಲ್ ಓನ್ಲಿ ದ ಫೈನಲ್ ವರ್ಡ್ ಪದಾನಾಂ ಪ್ರಯೋಗ ಏವ ಶ್ರೂಯತೆ ಲೋಕೆ ಪ್ರಕೃತಿ ಪ್ರತ್ಯಯ ವಿಭಾಗಸ್ತು ಮನುಷ್ಯ ನಿರ್ಮಿತ ಇಟ್ ವಾಸ್ ಕ್ರಿಯೇಟೆಡ್ ಬೈ ಪಾಣಿನಿ ಹ್ಯಾಸ್ ಸೆಡ್ ದ ಪ್ರಾತಿಪದಿಕ ಇಸ್ ರಾಮ ಅಂಡ್ ದ ಪ್ರತ್ಯಯ ಇಸ್ ಟು there may be other Vaiyakaranas who do not say Genasu Pratyaya, they may say the Visarga itself is a Pratyaya. So the Prakriti Pratyaya categorization depends on the Vaiyakarana. It depends on his convenience and how he takes his grammar ahead. Okay. So it is not real. Only the final words and final vakyas are real. Atayeva, kevalasya prakritehe prayogaha nabhavati, kevalasya pratyaya prayogaha nabhavati. Gunasya padasyeva prayogaha karaniyaha, tadashanta padam dvidham parita varshati, paniya vyakarana dita, bandham parita varshati, athava kinantam parita varshati. सुबंधम किन्नर सबसे क्रियापदम किन्नतम इच्छना क्रियापदम इच्छता वाक्य क्रियापदस्थिति का प्राधान्य व्याकरण शास्त्रे वाक्य प्रधानम भवति क्रिया क्रिया वाक्यम पदम वाक्य किन्नतम एव वाक्य प्रधानम भवति इसमें आपको कारकानिका क्रिया वाक्यम इति उच्यते क्रियैव वाक्यं केवलम् अस्ति इति चेत् तदपि वाक्यं भवितुम् अर्हति किन्तु केवलम् अहम् इति वाक्यं नास्ति. अहम् इति चेत् अस्मि इति अध्याहारः करणीयः. क्रियां विना वाक्यं नास्ति. वाक्ये क्रियापदस्यैव प्राधान्यम्. क्रियापदं च किमन्तम् इत्युक्ते क्रियापदेन किमन्तम् उच्यते. किमन्ते भागाः सन्ति. भासुः किमन्तस्य प्रकृतिः भवति भासुः. तेन सह वितरणप्रत्ययः इति भवति. जलनियुक्तः प्रत्ययः वितरणप्रत्ययः तथैव अक्षतप्रत्ययः भवति किं प्रत्ययः. मेजर् पार्ट् आफ् अ किलन्त आर् दधातु एण्ड् किं धातुः प्रकृतिः भवति धातुः प्रत्ययः भवति किं किं इति प्रत्याहारः. पूर्वं मया उक्तं विद्वत्मताम्भाम्भम् इद्वहि महि इति अष्टादशप्रत्ययाः सन्ति. नव परस्मैपदप्रत्ययाः यथा पठति पठतः पठन्ति इति ये श्रूयन्ते ते नव परस्मैपदप्रत्ययाः. वन्दते वन्दते वन्दन्ते इत्युक्ते ये श्रूयन्ते ते नव अत्मनेपदप्रत्ययाः. आहत्य अष्टादशप्रत्ययाः सन्ति. एकं किम् इति प्रत्याहारः क्रियते. तदतु मेजर् पार्ट् आफ् किङ्ग् धातु एण्ड् किं प्रत्यय धातोः सः अर्थः. वाट् डस् अ धातु इण्डिकेट् इन् क्रियापदम् धातु पार्ट् बोत् आफ़् दोस् पार्ट् केरि सेपरेट् मीनिङ्ग्. वाट् इस् द सेन्स् आफ् अ धातु. धातोः सः अर्थः. धातुः नाम कः इति चेत् भुवानयो धातवः इति सूचयामः. भागिना द्विसहस्रं शब्दस्वरूपाणां 2000 पार्टिकल्स् इट् हेस् बीन् नेम्ड् अस् धातु मै पाणिनि. धातुपाठः विद्यते. तत्र विद्यमानानां भू एव इत्यादीनां शब्दस्वरूपाणां भुवानयो धातवः इति सूत्रेण धातुसंज्ञा अधिका. ते धातवः सन्ति उपद्विसहस्रम्. एवम् एतेषां सर्वेषामपि धातूनाम् अर्थद्वयं विद्यते. आल् दीस् धातु हस्तु टु सेपरेट् मीनिङ्ग् दे कन्वे टु सेन्सेस्. फलं व्यापारस्य धात्वः. फलव्यापारयोः धातुः इति उच्यते. फलं व्यापारस्य धात्वः. व्यापारः नाम कः? क्रिया एव व्यापारः. एक्षन् itself is called vyapara or kriya. So that is one thing which is indicated by dhatu, which all of us know. Dhatu is an action word. Since it's a verb, it has to indicate an action. So every dhatu will indicate a vyapara or a kriya, which is obvious. Kintu na kevalam tat. Dhatuhu kevalam vyapara arthah nasti. Phalam api dhatvarthah. Kaya kriyaya kim फलं जायते. सः परिणामः भवति. सोऽपि धात्वर्थः इत्येव उच्यते. तस्य च फलम् इति नाम. क्रिया व्यापारः, तया क्रियया जायमानः परिणामः फलम्. एवं फलं व्यापारस्य धात्वर्थः इति उच्यते. किमुदाहरणम् इति पश्यामश्चेत्
पद्धति माता पद्धति अथवा पाचक पद्धति अत्र चतुर्धातोः कः अर्थः इति चेत् पाकक्रिया द एक्शन् आफ् कुकिङ्ग् वाट् एवर् इस् द सीरीस् आफ् एक्शन् दट् आर् इन्वाल्ड् इन् कुकिङ्ग् सः धातवः तथैव विशिष्टिः अपि धातोः पाकः व्यापारः पाकक्रिया या भवति सः व्यापारः फलं विकृतिः विकृतिः नाम तण्डुलादीनां मृदुभवनम् इति स्टेट् आफ् बीङ्ग् कुक्ड् सो रैस् द डिफरेन्स् बिट्वीन् अन्कुक्ड् रैस् अण्ड् कुक्ड् रैस् इस् द रैस् एक्स्पाण्ड् अण्ड् बिकम् साफ्ट् एक्सेट्रा दट् चेञ्ज् इन् रैस् आर् एनिथिङ्ग् एल्स् इट् युर् कुकिङ्ग् इस् काल्ड् इक्विप्सि इदानीं पतिधातोः अर्थः कः इति चेत् पाकक्रिया पाकस्य व्यापारः तथैव विकीर्तिः उभयमपि सतिधातोः अर्थः सतिधातोरर्थः विकीर्त्यनुकूलः व्यापारः सो वि डिफैन् सतिधातु एस् अ क्रिया विच् फेसिलिटेट्स् विकीर्ति व्यापार इस् अ क्रिया एन् एक्शन् विच् फेसिलिटेट्स् विकीर्ति इस् काल्ड् पाक ओके इट् इस् नाट् just any action, okay. Sarvesham hasunam vyaparaha arthaha. Eepriṣaha vyaparaha iti chesa, tattat phalopayogi vyaparaha dhātoha arthaha. Tattra pachidhātor arthaha, vishit yanukulaha vyaparaha. So an action which facilitates cooking, that is vishiti, is called, is the meaning of pachidhātu. Tattra vyaparaha asava bhavati pāsaha, एवं फलं भवति विशिष्टिः सिमिलर्लि गमधातुः अस्ति गच्छति गमधातोः कः अर्थः इति विचारयामश्चेत् गमनक्रिया उत्तरदेश संयोगः गमनक्रिया द एक्शन् आफ् मूविङ्ग् युवर् लेग्स् इस् गमन गमनं व्यापारः उत्तरदेश संयोगः फलम् एण्ड् द फलम् आफ् उत्तरदेशसंयोगः इट् इस् टु रीच् अनदर् प्लेस् इफ् यु जस्ट् मूव् युर् लेग्स् वेर् युर् स्टाण्डिङ्ग् इट् इस् नाट् काल्ड् गच्छति गच्छति मीन्स् यु हव् टु लीव् द स्पाट् वेर् यु आर् एण्ड् मूव् उत्तरदेशसंयोगः यु हव् टु लीव् द करेण्ट् देश देश इस् नाट् अ कण्ट्रि देश इस् जस्ट् अ प्लेस् ओके सो एतत् स्थलं विहाय अन्यत् स्थलं प्रति गमनम् इट् केन् बि अ फ्यू स्टेप्स् अवे It can be the next city, it can be the next, you know, that is not the condition. It is just, you have to leave this place and move on to the next. Ataha, gamadhato rathaha bhavati, uttaradesha sanyoganukulaha vyaparaha. An action which facilitates movement to, or which facilitates contact with another place is the meaning of gamadhato. एवं सर्वेषामपि धातूनाम् अर्थः वक्तुं शक्यते यथा वर्धते यस्य वर्धते सत्यं वर्धते ग्रोत् सः अर्थः वर्धनानुकूलः व्यापारः एन् एक्षन् इस् फेसिलिटे ग्रोत् अत्र वर्धनं फलमपि भवति तदेव व्यापारः अपि भवति खादति इत्यस्य कोऽर्थः जलविलसंयोगानुकूलः व्यापारः एन् एक्षन् विच् फेसिलिटेट् मूमेण्ट् आफ् सम् पार्टिकल् डौन् युर् थ्रोट् जल इस् थ्रोट् जलविल इस् द केविटि आफ् युर् थ्रोट् सो संथिङ्ग् इन् विच् यु ब्रिङ्ग् पार्टिकल् इन् कान्टाक्ट् वित् युर् थ्रोट् इस् काल्ड् खादति टेक्निकलि डिफैन् खादति एवं भवति सत्तानुकूलः व्यापारः An action which facilitates existence, that which enables you to exist, is called bhavati. Pathati, it says, vasananukulaha vyaparaha. Aham pathami, it says, I am doing an action which facilitates the loud speaking up of something, or reading of something. Bhajati, bhaktaha harim bhajati, ಪ್ರೀತಿಯನ್ನು ಕೂಲಹ ವ್ಯಾಪಾರ ಪ್ರೇಸಿಂಗ್ ಸಂಬಡಿ ಟ್ರೈಂಗ್ ಟು ಮೇಕ್ ಸಂಬಡಿ ಹ್ಯಾಪಿ ತದೇವ ಭಜನಂ ಪ್ರಕೃತಿ ಅಧೋದೇಶ ಸಂಯೋಗಾನುಕೂಲ ವ್ಯಾಪಾರ ಸೊ ಅನ್ ಆಕ್ಷನ್ ಇಸ್ ಫೆಸಿಲಿಟೇಟ್ ಯು ರೀಚಿಂಗ್ ಅ ಲೋವರ್ ಪ್ಲೇಸ್ ಇಸ್ ಪತನ ಏವಂ ರೀತಿಯ ಧಾತೂನಾಂ ಅರ್ಥ ವಿಧ್ರಿಯತೆ ಶಾಸ್ತ್ರೆ ಧಾತೋ ಅರ್ಥ ಭವತಿ ವ್ಯಾಪಾರ ತಥೈವ ಫಲಂ ದೇರ್ ಇಸ್ ಅ ಕ್ರಿಯಾ ಅಂಡ್ ದಟ್ ಕ್ರಿಯಾ ಇಸ್ ಡಿರೆಕ್ಟೆಡ್ ಟುವರ್ಡ್ಸ್ ಅ ಸ್ಪೆಸಿಫಿಕ್ ಆಬ್ಜೆಕ್ಟ್ ಇನ್ ಈಚ್ ಆಫ್ ದ ಧಾತು ಸೊ ದಟ್ ಪರ್ಟಿಕ್ಯುಲರ್ ಆಬ್ಜೆಕ್ಟ್ ಇಸ್ ದಟ್ ಕ್ರಿಯಾ ಇಸ್ ಟ್ರೈಂಗ್ ಟು ಅಚೀವ್ ಇಸ್ ಕಾಲ್ಡ್ ಅ ಫಲ ಅಂಡ್ ದ ಕ್ರಿಯಾ ಇಟ್ ಸೆಲ್ಫ್ ಇಸ್ ಕಾಲ್ಡ್ ಅ ವ್ಯಾಪಾರ ವ್ಯಾಪಾರ ಫಲಂ ಚ ಧಾತ್ವರ್ಥಃ ಫಲಂ ವ್ಯಾಪಾರ ಸರ್ಗಸಂಗ್ರಹ ಕೀದೃಶಃ ಅರ್ಥ ದತ್ತಃ ಪ್ರಾಯಣ ತಾರ್ಕಿಕಾನಾಂ ವೈಯಾಕರಣಾನಾಂ ಚ ಮತೆ ಭಿನ್ನತಾ ಭವತಿ ಏಷು ವಿಷಯು ಭಿನ್ನತಾ ನಷ್ಟ ವ್ಯಾಪಾರ ಫಲಂ ಇತ್ಯಸ್ತು ಸಮಾನಮೇವ ಕಿಂ ನಾಮ ವ್ಯಾಪಾರ ಕಿಂ ನಾಮ ಫಲಂ ಇತಿ ಸಮಾನಮೇವ ಕಿಂತು ಇಟ್ ಶುಡ್ ನಾಟ್ ಆಲ್ವೇಸ್ ಗೋ ಬೈ ಡೆಫಿನೇಷನ್ಸ್ ಆಫ್ ಸರ್ಗ ವೆನ್ ಯು ಆರ್ ಡೂಯಿಂಗ್ ರಚನ ಫಾರ್ ಎಕ್ಸಾಂಪಲ್ ಫಲಂ ಸರ್ಗ ಸಂಗ್ರಹ ಇರ್ತದೆ ಸಪ್ತಂ ಪದಂ ಸಪ್ತಂ ನಾಮ ಯಸ್ಯ ಅರ್ಥಬೋಧಕ ಶಕ್ತಿ ಅಸ್ತಿ ತತ್ ಪದಂ ಇದೆ ವೈಯಾಕರಣ ಇರ್ತದೆ ಸುಪ್ತಿನಂತಂ ಪದಂ So, definition between shastras, whether it is tarka, vedanta, vyakarana, etc. will vary. Into phalasveshaye, vyaparasveshaye, yavat aham janani tatha bhedaha nasti. Vyapara and phalam are the same always. Vyaparaha phalam iti samanam. Into vyaparaha phalam tatyarthaha etc. bhedaha tya. Okay. There are differences in the vyapara and phalam by in concept are the same. Into is vyapara a meaning of the dhatu or does it belong to the thing? Ityetesu visheshu mataphedaha santi tarkikanam vaiyakaranam. Any other questions? ಉಮಾಮಹೋದಯ ಪ್ರಶ್ನ ಅಸ್ತಿ ಉಮಾಮಹೋದಯ ತತ್ರ ಪ್ರಶ್ನ ಅಸ್ತಿ ಚೇತ್ ಅಥವಾ ಚಾಟ್ ಇತಿ ವಿಂಡೋ ಅಸ್ತಿ ತತ್ರ ಟೈಪ್ ಕರ್ತುಂ ಶಕ್ಯತೆ ಅಹಂ ದೃಷ್ಟ್ವಾ ವದಾಮಿ ಶೇಖರ್ ಮಹೋದಯ ಪುಸ್ತಕೆ ಪರಸ್ಮೈಪದ ಆತ್ಮನೇಪದ ಭೇದ ಸಹ ವ್ಯಾಕರಣಶಾಸ್ತ್ರೆ ಪರಸ್ಮೈಪದ ಆತ್ಮನೇಪದ ಪ್ರಕರಣಮಸ್ತಿ ದ ಪಾಪ್ಯುಲರ್ ಡೆಫಿನೇಷನ್ ಇಸ್ ಗಿವನ್ ಫಲಂ ತತ್ರಾಪಿ ಫಲಸ್ಯೇವ ಎತದಸ್ತಿ ಏತತ್ ಫಲಂ ಇಫ್ ದ ಆಕ್ಷನ್ ಇಸ್ ಫಾರ್ ಅದರ್ಸ್ ಪರಸ್ಮೈಪದ ಫಾರ್ ಒನ್ ಸೆಲ್ಫ್ ಇಟ್ ಇಸ್ ಆತ್ಮನೇಪದಂ ಇತಿ ವಸ್ತುತಃ ಸರ್ವೇಷಾಂ ಧಾತೂನಾಂ ನಾಸ್ತಿ ಕೇವಲ ಉಭಯ ಪರಿಣಾಮ ಧಾತೂನಾಂ ವಿಷಯೇ ಏವ ಏಕಾದೃಶಃ ನಿಯಮಃ ಅಸ್ತಿ ಸಾಮಾನ್ಯತಃ ಅನುರಾಕ್ತ ನಿತ ಆತ್ಮನೇಪದಂ ಇತಿ ಉಕ್ತಂ ಯತ್ರ ಧಾತೌ ಅನುರಾಕ್ತ ಸ್ವರಾಣಾಂ ಇತ್ ಸಂಜ್ಞಾ ಭವತಿ ಅನುರಾಕ್ತ ಸ್ವರಃ ಕಃ ಇತಿ ಸರ್ವೇ ಜಾನಂತಿ ಏವಂ ಇತ್ ಸಂಜ್ಞಾಮಪಿ ಜಾನಂತಿ ಸೋ ಅನುರಾಕ್ತ ಸ್ವರಸ್ಯ ಇತ್ ಸಂಜ್ಞಾ ಭವತಿ ಚೇತ್ ಸಹ ಧಾತು ಆತ್ಮನೇಪದಿ ಭವತಿ एवं नकारस्य इत्संज्ञा भवति चेत् सः धातुः आत्मनेपदि. उदाहरणानां वन्दधातुः अस्ति वन्दते, तत्र वधि अभिवादनस्तुत्योः इति भासः, तत्र इकारः इत्संज्ञकः तथा अनुदात्तः, अतः वन्दधातुः आत्मनेपदि. एवं शीन् धातुः अस्ति शेते शयाते शेते शेते अपिति इत्यर्थे शीन् धातुः, तत्र नकारस्य इत्संज्ञा अस्ति अतः सः धातुः अपि आत्मनेपदि. तत्तु आत्मनेपदस्य निर्णयः. वरितरितः शत्रुभिप्राये क्रियाफले सूत्र वरितस्वरः इत्संज्ञकः भवति चेत् अथवा न्यकारः सवर्गपञ्चमाक्षरः इत्संज्ञकः भवति चेत् सः धातुः उभयपदि. उदाहरणार्थं पतिर्धातुः अस्ति दुपचष् पाके इति धातुः, तत्र चकारोत्तरः अकारः वरितः, वरितस्वरः यदि इत्संज्ञां प्राप्नोति तर्हि सः धातुः आत्मनेपदि, क्षम्यताम् उभयपदि. अत एव पतति पतते इति रूपद्वयमपि विद्यते. तत्र यदि पाकः आत्मार्थं तर्हि आत्मनेपदित्वं पतते इति भवति, तथा च कर्ता एव भुङ्क्ते. यदि पाकस्य फलं पाकं भुङ्क्ते तर्हि पतते, यदि अन्येषां कृते पाकः तर्हि पतति. एवं कृञ् दुक्कृकरणे भागः अस्ति, सः नीत् यकारः इत्संज्ञकः, अतः सोऽपि उभयपदि करोति कुरुते. तत्रापि यदि कर्तृत्वं क्रिया भवति तर्हि आत्मनेपदित्वं, यदि अन्यार्था क्रिया तर्हि परस्मेपदित्वं. शेषं परस्मेपदं द्रवेत् आर् आल् परस्मेपदि. धातु हेज् अनुदात्त लेटर् आर् नकार आर् एस् इस् इट् इस् काल्ड् आत्मनेपदि. If it has a swarita letter or a nyakara as if it is called, it is bhayapadi. Anye sarveti dhatavaha parasmai padinaha. Anye kopi prashna ha? पुनः वक्तव्यं चेत् परस्मैपदत्वा अर्थनेपदत्वा आर् उभयपदत्वा आफ् धातु इस् डिपेण्डिङ्ग् आन् वाट् लेटर् गेट् इत्सम्या. इत्सम्या इस् मार्कर् इस् यु नाट् अटेण्ड् द प्रीवियस् लेटर् इत्सम्या नाम का इत्येव प्रश्नः स्यात्. इत् इति जस्ट् अ नेम् विच् इस् गिवन् टु सर्टन् सेट्स् आफ् लेटर्स् इन् व्याकरण. वधि इत्यत्र यदि धातुः अस्ति तत्र इकारस्य इत् इति संज्ञा अस्ति. इत् संज्ञा कथं भवति इति भिन्नम्. नौ डिपेण्डिङ्ग् आन् द लेटर् ईस् धातु मैट् हाव् सम् लेटर् धातु ऐ मीन् ओरिजिनल् धातु. अस्माभिः वन्दते इत्यस्य वन्दधातुः इति उच्यते, किन्तु मूलधातुः भवति वधि अभिवादनस्तुत्योः इति मूलधातुः. तत्र मूलधातु कश्चन वर्णः इत्सम्यकः भवितुम् अर्हति, अथवा केचन वर्णाः. सो वन् आर् मोर् लेटर्स् आफ् ईच् धातु विल् हाव् इत् सम्य विल् बि काल्ड् इत्. डिपेण्डिङ्ग् आन् द लेटर् विच् इस् काल्ड् इत् वी मेक् अ डिस्टिङ्क्षन् बिट्वीन् परस्मैपद आत्मनेपद परस्मैपदी आत्मनेपदी अण्ड् उभयपदी धातु. सो नौ इट्स् द लेटर् विच् हास् इत् सम्य इन् अ धातु happens to be anudatta. Anudatta swaraha. Uttayirudattaha, niteirudattaha, samahara swaitaha. Iti swaraha tredha bhavanti. Swarana tredha vibhagaha. Udattaha, anudattaha, swaraha iti. Vedeshu prayujyate. Evam vyakarane iti asti. Yadi dhatau ittanyayuttaha varnaha anudattaha bhavati. Tarhi सः धातुः आत्मनेपदी. एवं धातौ यः इत्सम्यकः वर्णः सः नकारः सवर्गपञ्चमाक्षरः भवति चेत् कोऽपि धातुः आत्मनेपदी. अनुदात्त एक आत्मनेपदम् इति सूत्रम्. सो एनि धातु विच् हेस् अनुदात्त लेटर् एस् इत्सम् हेविङ्ग् इत्सम्य आर् दट् विच् हेस् नकार एस् इत् विल् आत्मनेपदी. तथैव धातौ वरितस्वरः इत्संज्ञां प्राप्नोति चेत् सः धातुः उभयपदी भवति. उदाहरणार्थं लुपचष् इति उक्तं, लुपचष् इति धातौ सकारोत्तरः अकारः त्वरितः तस्य इत्संज्ञापि अस्ति. यदि त्वरितस्वरस्य इत्संज्ञा अस्ति सः धातुः उभयपदी भवति, पतति पतते इति उभयं साधु. एवं न्यकारः सवर्गपञ्चमाक्षरः यदि इत्संज्ञकः तर्हि कोऽपि धातुः उभयपदी भवति. तेन विच् धातु नरात्मनेपदी विचार उभयपदी. द रेस्ट् वाट् एवर् इस् रिमेनिङ्ग् अर्थात् कोऽपि स्वरः यदि उत्सम्यं न प्राप्नोति अथवा उदात्तस्य इत्सम्या अस्ति अथवा अन्येषां कलाम् इत्सम्या अस्ति, एनि अदर् केस् द धातु विधीय प्राप्नेपदि इति भेदः. केवलम् अर्थानुगुणं प्रश्ने पदित्वा आत्मनेपदित्वस्य निर्णयं कर्तुं न शक्यते व्याकरणे. स्पष्टम्? प्रश्नः चलधातोः उत्तरदेशसंयोगः कथमस्ति चलति इत्यस्य. मया तु केवलम् उदाहरणमर्थं प्रदर्शितं, सर्वेषां धातूनाम् एवम् अर्थनिर्णयः वक्तुं शक्यः. इदानीं धात्वर्थः व्यापारः तथैव फलम् इति ज्ञातम्. अनेनैव आधारेण धातूनां सकर्मक अकर्मकविभागोऽपि क्रियते. तेन आधारेण अर्थात् धातोः फलं व्यापारस्य अर्थः इति उक्तं. फलव्यापारयोः आधारेणैव सकर्मक अकर्मकविभागः क्रियते. वयं जानीमः केचन धातवः सकर्मकाः केचन अकर्मकाः सन्ति, केचन द्विकर्मकाः अपि सन्ति इति भिन्नं. द्विकर्मकः जनरली अ धातु विल् बि इदर् सकर्मक आर् अकर्मक. चलति इत्यस्य कोऽर्थः इति प्रश्नः आसीत्. उत्तरदेशसंयोगः इति न भवति इति सत्यं. यथा तया उक्तं ट्रेड्मिल् चलति इति यदि वदामः तर्हि उत्तरदेशस्य संयोगः नास्ति, अतः चलति इत्यस्य उत्तरदेशसंयोगः इत्यर्थः नास्ति. यथा गच्छति इत्यस्य अस्ति, तथैव ट्रेड्मिल् अथवा यत्र स्थानपरिवर्तनं नास्ति तत्र चलति इत्यस्ति. तर्हि चलधातुः कोऽर्थः चलधातोः भिन्नरीत्या अर्थः वक्तव्यः भवति. व्यजनं चलति इत्यपि वदामः कोऽर्थः
कार्यं करोति इत्यर्थः.
Maybe even there you can say the parts of the thing are moving. Okay, they are moving from one place to other. Tatrapi anyadesha sanyogaha keva. Tathatu vaktum shakyate. If you say ki sat prasatya dreadmill or something. Tasya tu pratyekam bhinnadesha sanyogaha asti. So say each point in it, it moves from one to the next. Okay, tatrapi sanyogaha asti. Uttaradesha sanyogaha. Satyam kira. Say, even when we walk around in circles, this is what happens. If I am walking around in a circle, I may not get to a different place. Hindu. At each step, I am going, leaving this current place and moving on to the next. Evam tatrapi, yada vyajanam chalati. So each blade of a span is moving from its previous point to the next point. Adaha tatrapi tadrisham asyeva. Uttaravesha tanyavaha. Ityapi vaktum shakya. Okay, so now moving on. Sakarmaka akarmaka vibhagaha. A great salamaha. Okay, hanya prasnama. Vand vadi rupayoha bhedaha kaha. Rupayoha bhedaha nasti. Vastudaha mula bhatuhu. Vadi ajivana vibhatuhu. किन्तु वधिधातोः इकारस्य उत्सम्या भवति वधु इति भवति तथैव मकारस्य आगमः भवति अतः वन्दु इति तस्यैव रूपस्य परिवर्तनम् इनिशियल् स्टेज् आफ् द धातु इस् वधि लेटर् इट् गेट् ट्रान्स्फर्म् टु वन्द् अण्ड् देन् वी हेव् द साङ्ग् वन्दते वन्दे टु वन्दन्ते सो वेदर् वी से इट् इस् वन्दु धातुः आर् वधि धातुः समानमेव कोऽपि भेदः नास्ति वैयाकरणाः वधिधातुः इति मूलधातुं वदति यथा पच् धातुः इति उच्यते एवं दुपच् इत्यपि उच्यते समानौ द फस्ट् इनिशियल् स्टेज् इस् दुपच् once you remove all the ikshamya letters, it becomes pachu. So pachu also is referred to as the dhatu, that is taking away the ikshamya letters. Dupachu is yapi dhatu, yatra ikshamya varnaha shruyante. Okay, any other question? Ashtu, sakarma kaha adharma kaha. एककर्मकाः के अकर्मकाः जनरलि हिनो उदाहरणार्थं खादति किं खादति इत्यस्ति तस्य उत्तरमस्ति चेत् फलं खादति अतः खादधातुः सकर्मकः पठति पाठं पठति पठधातुः सकर्मकः वन्दते गुरुं वन्दते वन्दधातुः सकर्मकः भवति किं भवति इति प्रश्नस्य अवकाशः नास्ति अतः भूधातुः अकर्मकः वर्धते किं वर्धते इति प्रश्नः न भवति अतः वर्धधातुः अकर्मकः इत्यादिरीत्या सामान्यतः ज्ञानमस्ति व्याकरणरीत्या कथं सकर्मक अकर्मकयोर्भेदः इति पश्यामश्चेत् यत्र धातोः फलं व्यापारस्य भिन्नेषु पदार्थेषु भवतः पदार्थ इस् नाट् अ थिङ्ग् इत्यपि वन् पर्सन् आर् अ थिङ्ग् any matter and the phala is in a different matter. Sahadhatuhu sakarmakha. Yatra phalam vyaparasya bhinneshu padartheshu bhavataha. Sahadhatuhu sakarmakha. Pachakaha. Sanyatam pachakam yetyasti. Pachakaha tandulam pachati. Iti vakya. Pachati iti kriya. Sahadhatuhu kahartha. Iti chenukunaha vyaparaha. Purvameva drishtaha. अत्र व्यापारः कुत्र भवति व्यापारः नाम पाकक्रिया फ्राक्षन् आफ् किङ्ग् पाचके भवति पाचकः विकृतिः कुत्र भवति तण्डुले भवति बट् द सोफनिङ्ग् विकृतिः द एक्षन् आर् द रिसल्ट् आफ् कुकिङ्ग् इस् सीन् इन् तण्डुल व्यापारः पाचके अस्ति फलं तण्डुलेषु अस्ति अतः यत्र वैयधिकरण्यम् अस्ति यत्र फलम् अन्यत्र भवति व्यापारः अन्यत्र भवति तादृशः धातुः सकर्मकः इति उच्यते तस्य कर्मपदं भवति एवं भक्तः हरिं भजति भजधातोरर्थः प्रीत्यनुकूलः व्यापारः यु क्रेट् सम्बडि आर् ट्रैन् टु प्लीस् हिम् रैट् भजनम् इस् एन् एफर्ट् टु प्लीस् भजनक्रिया व्यापारः कुत्र अस्ति भक्ते अस्ति भक्तः भजनं करोति प्रीतिः कुत्र भवति तस्य व्यापारस्य फलमस्ति प्रीतिः प्रीतिः हरौ जायते हरि इस् प्लीस् भजनक्रिया भक्ते भवति प्रीतिः हरौ भवति भिन्न भिन्नेषु पदार्थेषु व्यापारः फलं च अस्ति इत्यतः भजधातुः सकर्मकः एव्रिवेर् यत्र फलं फलव्यापारयोः वैयधिकरण्यं फलम् अन्यत्र व्यापारः अन्यत्र भवति तादृशः धातुः सकर्मकः अकर्मकः अधिकः यत्र धातोः फलं व्यापारस्य एकस्मिन्नेव पदार्थे भवतः व्यापार अण्ड् फल रिसैड् इन् द सेम् थिङ्ग् देन् तत् धातु विल् बि अकर्मकः तादृशः धातुः अकर्मकः भवति यथा सत्यं वर्धते इत्यस्ति वर्धनानुकूलः व्यापारः द एक्शन् इस् फेसिलिटेट् ग्रोथ् ग्रोत् यु केन् सी इट् लेन्दन् आर् इट् बिकम् थिक् एट्सेट्रा दट् इस् द फल एण्ड् द एक्शन् इट् इस् सेन् सैण्टिफिक् टर्म् मे बि मल्टिप्लिकेशन् आफ् सेल्स् इस् द एक्शन् सो नौ Vardhanam putrasi sasya eva asti. It is the sasya itself which is showing the phala. Taranukula vyaparaha api sasya eva bhavati. Sasya meva vardhananukulam vyaparam karoti. Sasya meva vardhate. Phalam vyaparasya ekatra eva bhavati. Ataha vrudhudhatuhu akarmataha. Puttakam bhavati. Ataha puttakam asti. Satanukula vyaparaha bhudhatoho asthatoho is existence. Tadanukula vyaparaha. Even to exist, there must be some vyapara. There is the existence required some kind of a vyapara. They may be at the molecular level. Idanim satta means existence. Tadeva phalam. Tadanukula vyaparaha ubhayam api. Uttake eva bhavati. Both of those are present in a single entity which is a puttaka. It is why bhavati is also a karmaka. Evam prani jivati. Jivadhatoho pranadharananukulaha vyaparaha arthaha. Pranaha is the life air. Pranadharananukulaha vyaparaha jivadhatoho arthaha. Pranadharanam putra bhavati. Jive, yaha jivati, udaharanartham, praniyeva bhavati. Tadanukula vyaparaha. To live, there are some processes which are going on in the body. Say the heart beat and all that. All the systems are working. Tadapi praniyeva bhavati. Ataha, jiva dhatuhapi akarmaka. Akarmaka, akarmaka bhedaha, phala vyapara drishtya. So, when you realize that the dhatu has two separate meanings, one is the phala and the other is the vyapara. And based on that, we also have the sakarmaka, akarmaka, vibhaga. Okay. Asmakam pradhana hamshahati dhatvartha. I hope everybody has understood what is phala and what is vyapara. This becomes clear now. Yeah, that is shastra. I mean, Shastrasya Prayojanam Tadeva. When you have some estimation which you do in general language, so the Shastra puts it very, very precisely. Tadeva, Shastram Nama Tadesham Chintanam Dhatamati, Sarvesha Shastresham, Akevalam Vyakarane, Sarkeva Bhavatu, Yeranteva Bhavatu, Tani Lakshanani, Sarkeva. Satta is not authority. Satta iti Hindi Bhashayam Sarvakaraha, authority it is. Asti asti. Samsara bhashayam satta means this existence. Asti. That the existence is called satta. Bhaskartha vidhitaha. Agregartha. Kimarthartha. Kittasitha. Kirantesha, you remember we started with the pada. Pada is a two kinds. Kirantaha, Subantaha. So, Kirantesha, Dhatuhu, Sin. It is Bhagadvayam Bhavati. Dhatuhu, Atthaha, Phalam, Vyaparaha. Sin, Prasesha, Kaha, Atthaha. It is Prashnaha. Sin, it is Patati, Patshate, Ityado, Ityadaya, Sin, Prasyaha. You know which are the Sin, Prasyaha. Sin pratyayena ete arthaha bodhyante. Karakam athava bhavaha kalaha sankhya. Ete arthaha sin pratyayena bodhyante. So every sin pratyaya will indicate either a karaka. That is, which is either kartra karaka or karma karaka or bhava. There are three options. It will also indicate kala and sankhya. Sankhya is the number. Singular, plural, dual. Udaharanartham, pātakaha odanam patasi. Ti iti kim pratyayaha. Yena kim kim nyayate? Kartrukarakam nyayate. The ti pratyaya there is indicating kartrukaraka. Patasi is third person who is cooking. So it indicates the karta who is doing the cooking. Iti jnayate. Vartamana kalaha jnayate. I am natlakarasya pratyaya. अतः तेन प्रत्ययेन वर्तमानकालः ज्ञायते, एकवचनम् अपि ज्ञायते, संख्या अपि ज्ञायते. सो द किम् प्रत्यय इस् कन्वेयिङ्ग् थ्री डिफरेण्ट् मीनिङ्ग्स्. सो इट् इण्डिकेट्स् कर्तृकारक, इट् इण्डिकेट्स् वर्तमानकाल, इट् इण्डिकेट्स् एकवचनं. कारकं कालः तथैव संख्या इति त्रयः किमर्थाः. सो अत्र कर्तृकारकं बोध्यते इत्यतः एव अयं कर्तरिप्रयोगः इति उच्यते. सो दिस् इस् द बेसिस् आफ् कर्तरिप्रयोग. वेन् यु से प्रयोग इस् कर्तरि, वाट् वी एक्चुअलि मीन् इस् द किङ्ग् इन् दट् सेण्टेन्स्. इन् द क्रियापद आफ् दट् सेण्टेन्स् इण्डिकेट् कर्ता. वेन् द किङ्ग् यदा किङ्ग् प्रत्ययेन केवलं सि एव भवेत् नास्ति, पचामि इत्यत्र कोऽपि किं कर्तयः यदि कर्तारं बोधयति, इफ् इट् इस् इण्डिकेटिङ्ग् कर्तृकारक, देन् द प्रयोग इस् काल्ड् कर्तरि प्रयोगः. पाठकेन तण्डुलाः पच्यन्ते इत्यस्ति. अत्र ऋन्ते इति प्रत्ययः, तत्र किं ज्ञायते, कर्मकारकं बोध्यते. सो द पच्यन्ते इट् रेफर्स् टु तण्डुलाः पच्यन्ते, नाट् पाठकेन. सो अनेन प्रत्ययेन किं प्रत्ययेन कर्मकारकं बोध्यते. एवमेव वर्तमानकालः, अयमपि लट्लकारस्य प्रत्ययः, अतः वर्तमानकालः बोध्यते, बहुवचनं च बोध्यते. कारकं कालः संख्या इत्येते पुनर्थाः. सो द प्रत्यय इस् इण्डिकेटिङ्ग् कर्मकारक, अत एव अयं कर्मणि प्रयोगः. यत्र वाक्ये किं प्रत्ययेन कर्म बोध्यते सः कर्मणि प्रयोगः. अत्र प्रत्ययः यन्ते वा केवलम् उन्ते वा इति प्रश्नः वस्तुतः अन्ते इति भवति. वस्तुतः प्रत्ययः ऋषि प्रत्ययः, तस्य स्थाने अन्ति इति आदेशः. सो यकारः य इस् नाट् द किं प्रत्यय हियर्. ओके, द किं प्रत्यय विच् इस् सी हियर् इस् म एण्ड् के. इट् इस् एक्चुअलि अन्ते, इट् वास् एक्चुअलि ऋषि. So there is a lot of prakriya which goes on, so we cannot put this exactly, but the actual prakriya here is ante, if you are taking it exactly. It is pach, ya and ante. Pach dhatuhu, ya iti vikaranaha, ante iti akhyata prakriya. Kim prakriyena, ekobi prakriyena, kena prakriyena, karakam kanaha samsha, karma karakam, वर्तमानकालः बहुवचनं च बोध्यते इति अयं कर्मणि प्रयोगः. अन्यः अपि प्रयोगः अस्ति, मया अभूयत, अहं भवामि, मया भूयते, तस्यैव लङ्लकारे मया अभूयत. भूयते इत्यत्र यः प्रत्ययः वस्तुतः स ते इति प्रत्ययः, इति विज्ञायते. तेन प्रत्ययेन भावः भूतकालः च बोध्यते इति वदामः. इट् इण्डिकेट् भाव एण्ड् आल्सो द पास्ट् टेन्स्. भावः नाम कः इति चेत् भावो नाम धात्वर्थः. भाव इस् द सेन्स् मीनिङ्ग् आफ् द धातु इट्सेल्फ्. भावे प्रयोगे द प्रत्यय विल् नाट् इण्डिकेट् एनी स्पेशल् मीनिङ्ग् अदर् देन् द धात्वर्थ. इट् जस्ट् इण्डिकेट् द सेम् थिङ्ग् एस् धात्वर्थ. देर् इस् नो अदर् स्पेशल् मीनिङ्ग् विच् इस् इण्डिकेटेड्. धात्वर्थभिन्नः विशिष्टः अर्थः नास्ति प्रत्ययस्य. यः धातोः अर्थः स एव प्रत्ययस्यापि अर्थः. सो द होल् थिङ्ग् इण्डिकेट् क्रिया इट्सेल्फ्. देर् इस् नो कर्ता आफ् कर्म इन्वाल्व्ड्. स एव भावः. अतया अयं भावे प्रयोगः इत्यपि उच्यते. एण्ड् आल्सो नोटिस् तत्र संख्या नोक्ता, तदेव वचनं संख्या नोच्यते भावे प्रयोगे. भावस्य भावः नाम धात्वर्थः इति उक्तं, सा च क्रिया. क्रिया तु सर्वदा एकैव, एक्शन् इस् आल्वेज् वन्. तस्य संख्या न भवति, अतः भावे प्रयोगः सर्वदा एकवचने एव भवति. तत्र संख्याबोधः इति वक्तुं न शक्यते. कर्ता केन् बि वन् टु आर् मेनि, अत एव तत्र प्रत्ययेन संख्या अपि बोध्यते. एवं कर्मणि प्रयोगे किन्तु भावे प्रयोगे क्रियायाः एकत्वात् एकवचनम् एव संख्याबोधः इति न भवति भावे प्रयोगे प्रत्ययेन भावः भूतकालस्य बोध्यते इति वदामः. अयं किमर्थः भावार्थः किमर्थः तिङन्तः पदं द्विविधं सुप्तिङन्तं पदं तिङन्तेषु धातुः कः धातोरर्थकः इति ज्ञातः एवं किं प्रत्ययः प्रत्ययस्य कोऽर्थः इत्यपि ज्ञातः. इदानीं सुबन्ताः सुप् अन्ते यस्युतः सुबन्तः यथा किम् इति प्रत्ययानां प्रत्याहारः तथैव सुप् इत्यपि प्रत्याहारः. सु औषस् अमौच्य ताभ्यां चेत् मेभ्यां चेत् नसिभ्यां चेत् नट् ओस् आम् नि ओस् इति एकविंशतिः प्रत्ययाः सन्ति. सुप् प्रत्ययाः इति उच्यन्ते. सु इत्यारभ्य अन्ते पकारपर्यन्तं प्रत्याहारः सुप् इति एकविंशतिः प्रत्याहाराः तेषामेव सुप् इति नाम. ते प्रत्ययाः यस्य अन्ते भवति इति ते सुबन्ताः. वि आलरेडी सा सुबन्तः सुप्रत्ययात् तेषां विभक्तिषु कथं विभागः प्रत्येकं वचने कथं विभागः इति सर्वम् अधीतम्. सो विभक्तिः सप्तविभक्तयः सन्ति. यतस्ताः इस् विभक्ति तद्विभक्ति इस् द बेसिक् आफ् कारकप्रकरणम्. वस्तुतः यद्यपि कारकप्रकरणम् इति उच्यते तत्र विभक्तेरेव प्राधान्यम्. विभक्त्यर्थप्रकरणम् इत्येव सुवतम् इति उच्यते. अतः विभक्तिः विभक्तिविषये किञ्चित् पश्यामः. सप्त विभक्तयः सन्ति सर्वे जानन्ति एव. सप्त एव विभक्तयः. सम्बोधनप्रथमा इति या उच्यते सा प्रथमा विभक्तिरेव. केवलम् एकजने प्रतिभेदः आल्सो प्रथमा विभक्ति. सप्त विभक्तयः प्रथमा द्वितीया तृतीया चतुर्थी पञ्चमी षष्ठी सप्तमी इति सप्त विभक्तयः. प्रत्येकं विभक्तेः प्रत्ययाः भवन्ति. प्रथमा विभक्तिः नाम का इति चेत् टु औजस् इत्येते प्रत्ययाः एव प्रथमा विभक्तिः इति उच्यते. एवम् अम् औक्ष्यस् इत्येते प्रत्ययाः एव द्वितीया विभक्तिः इति उच्यते. विभक्ति इस् नथिङ्ग् बट् द प्रत्यय. विभक्ति इस् द नेम् गिवन् टु द सेट् आफ् त्री प्रत्यय. एकवचन द्विवचन एण्ड् बहुवचन प्रत्यय दट् पर्टिक्युलर् विभक्ति इस् इट्सेल्फ् कॉल्ड् अस् विभक्ति. विभक्तिः इत्यस्य व्याकरणशास्त्ररीत्या किं लक्षणं का नाम विभक्तिः नम्बर् विभक्तिः नाम का कोऽपि स्मरति वा पूर्वतनकक्षे स्वगीतं विभक्तिः नाम का. What is Vibhakti? Maybe you can go through previous classes and tell me what is Vibhakti in the next class. What is Vibhakti according, what is the Vyakarana, Vyakarana definition of Vibhakti? Panine hai किं लक्षणं विभक्तेः इति कृत्वा उच्यताम्. इदानीं सप्तविभक्तयः प्रथमा द्वितीया तृतीया चतुर्थी पञ्चमी षष्ठी सप्तमी एताः विभक्तयः कुत्र भवन्ति इति प्रश्नः. केषु अक्षेषु विभक्तेः प्रयोगः भवति विभक्तेः प्रवृत्तिः कथम् इति प्रश्नः. विभक्तीनां प्रवृत्तौ बहूनि निमित्तानि भवन्ति. चतुर्थे अयन्तु एव्री word will be used in a particular vibhakti, and that particular vibhakti will carry a meaning. Vibhakti ha bhava. Yesha arthesha vibhakti bhavati. Kim nimittam vibhakti prayoge. Iti prasne. Vastutaha vibhakti naam pravruttau bahuni nimittani bhavanti. Tatra prathamam nimittam bhavati karakam. Karakam prayukta vibhakti bhavati. Karakam puraskutte vibhakti. Udaharanartham. రామః వనం గచ్చతి ఇది వాక్యం. తత్ర వనం వనశబ్దస్య కర్మకారక సంజ్ఞ అస్తి. వనం ఇది కర్మకారకం. కర్మకారకం ఇత్యతః ఏవ వనశబ్దస్య ద్వితీయా విభక్తిః భవతి. సో ద వర్డ్ వన హియర్ ఇస్ గెటింగ్ ద్వితీయా విభక్తి సింప్లీ బికాజ్ ఇట్ ఈస్ అ కర్మకారక. కర్మకారకత్వం పురస్కృత్య వనశబ్దస్య ద్వితీయా విభక్తిః భవతి. అతః విభక్తే అత్ర వనశబ్దాతో ద్వితీయా విభక్తే ప్రవృత్తౌ కర్మకారకం నిమిత్తం. సో ఫర్ డూయింగ్ ఫర్ యూజింగ్ వన ఇన్ ద్వితీయా విభక్తి ద ఓన్లీ రీజన్ ఇస్ దట్ వన ఇస్ కర్మకారక. ఏవమేవ వృక్షాత్ పర్ణం పతతి. వృక్షశబ్దాత్ పంచమీ విభక్తి ప్రయత్న. కిం నిమిత్తం అపాదానకారకం నిమిత్తం. వృక్ష ఇస్ అపాదానకారక అండ్ దట్ ఇస్ వై వి ఆర్ యూజింగ్ పంచమీ విభక్తి ఫర్ వృక్ష. అత వృక్షాత్ ఇత్యత్ర పంచమీ విభక్తే కారకం నిమిత్తం. సో కారక కెన్ బి ఎ నిమిత్త ఫర్ విభక్తి, బట్ కారక ఇస్ నాట్ ద నిమిత్త ఫర్ ఆల్ విభక్తి. కారకం విభక్తే నిమిత్తం భవితుం అర్హతి, కింటు సర్వాసా విభక్తీనాం కారకం న నిమిత్తం. It is why I told this in last class and I keep repeating, there is no one-on-one relation between Karaka and Vibhakti. Karakatya Vibhakti Kaldrisha Sambandha Nasti. Karma Karakatya Sarvada Dityaya Vibhakti Iti Nasti. Dityaya Vibhakti Sarvada Dityaya Vibhakti Sarvada Karma Karakatya Iva Bhavati Iti Nasti. No, neither of those relationships holds good. It is not that all karmakarakas will get dvitiya vibhakti, neither that everything is in dvitiya vibhakti is karmakaraka. Karaka is only one of the nimittas for vibhakti. Vibhakti svatau karakam ekam nimittam. Karaka is one of the reasons for doing a particular vibhakti for a word. Tathi anyani kani nimittani santi. ప్రసిద్ధం అస్తి ఉపపద విభక్తికి. విశిష్టానాం పదానాం అర్థేన యోగేసి విశిష్టా విభక్తికి ప్రవర్తతే. వి సమ్టైమ్స్ డూ అ పర్టిక్యులర్ విభక్తి బేస్డ్ ఆన్ అ పర్టిక్యులర్ వర్డ్. ఇది బహు ప్రసిద్ధమస్తి. రామేణ సహ సీతావనం గచ్చతి. రామేణ సహ ఇత్యస్తి. రామేణ ఇత్యత్ర కిమర్థం తృతీయా విభక్తిః ఇది చేత సహ యుక్తే. సహ ఇది శబ్ద వాక్యే యది ప్రయుక్త తర్హి తేన సహ సంబద్ధం పదం తృతీయా విభక్తౌ భవతి ఇది నియమ. రామ ఇస్ నాట్ అ కారక హియర్. రామస్య కారకత్వం నాస్తి. కింటు సహ ఇది పద శబ్దార్థేన యోగే రామశబ్దస్య తృతీయా విభక్తి భవతి. సో విభక్తి కెన్ బి induced in association with particular words. Tadeva upapadam iti uchyate. Atra saha ityasya upapadam. A word which is close by. That is, depending on some other word in the sentence, you do a particular vibhakti for a word. This is called upapada vibhakti. Gramad bahihi aranyam vidyate. Gramad ityatra kimartham panchami vibhaktihi. Yata bahihi iti shabda hachite panchami vibhaktihi bhave. వినా ఇది పదమస్తి చే ద్వితీయా వా తృతీయా వా పంచమీ వా భవతి తేన వినా జలం వినా ఇత్యాది. సో ఆల్ దీస్ ఆర్ అనదర్ సెట్ ఆఫ్ నిమిత్త ఫల విభక్తి. విభక్తే నిమిత్తం ఆదౌ కారకం భవితుం అర్హతి, ఉపపదం అపి విభక్తే నిమిత్తం భవితుం అర్హతి. సిమిలర్లీ ప్రాతిపదికార్థ ఇత్యపి విభక్తే ప్రవృత్తౌ నిమిత్తం. దేర్ ఇస్ నో స్పెషల్ సెన్స్ విచ్ ఇస్ కన్వేడ్ బై ద విభక్తి. as we were talking in dhatu, bhava means dhatartha. The same meaning of the dhatu is conveyed by the pratyaya also, which is what we call bhavya prayoga. Similarly, in subanta, whatever is the meaning of the pratipadika, that itself is conveyed by the pratyaya also. Which pratyaya, which vibhakti, that will be the prathama vibhakti. So, prathama vibhakti hai prabhu, pratipadikarthaha eva moolam. So, prathama vibhakti is done to convey the same meaning as that of the pratipadika. There is nothing additional being conveyed by prathama vibhakti. So, this pratipadikartha itself can be the nimitta for vibhakti. Not for all vibhakti, for prathama vibhakti. Prathama vibhakti hai prabhu, pratipadikarthaha eva moolam bhavati. Yatha ramaha, yatha rama iti pratipadikasya yaha arthaha. A particular person is the meaning of Rama Pratipadika. Sayeva Ramaha iti Prathama Vibhakti rati Arthaha. So in addition, it's not just Pratipadika Artha, but it's Sambodhanam iti Prathama Vibhakti hai Nikam Bhavati. Hey Rama, Sayeva Sambodhana Prathama. So we will see this in detail later. But for now, here there is neither Karaka nor Upapada. Okay, so Rama is not Karaka. Okay, so let me make this clear again. Ramaha Gachati, Rama is not getting Prathama Vibhakti because it is Tatra Karaka. That is a misconception which we see again later. So Ramaha is Yatra Pratipadika Arthe Vibhakti. Karakatvam Nasti, Upapada Mati Nasti. It is not getting Prathama Vibhakti because of some other particle. It is getting Prathama Vibhakti simply because it conveys the same meaning as the Pratipadika. Even Sambodhane is Prathama Vibhakti Bhavati. So this Pratipadika Artha etc. can also be nimitta for a Vibhakti. Okay. So, once a digression. Vibhakti hi namaka iti krishtam. The reason, Sukhitam Vyetar is okay. You can at least listen to what I am saying now. Hindu Satyam, Sukhinam. Vibhakti Praya Sutrayana, Sup and Thing. The Sup Prataya and Thing Prataya are called Vibhakti, according to Bani. But I also said in last class, Vibhakti is a name which is popularly used for Sup Vibhakti. The Thing Vibhakti is called them as Purusha. Even though Bani defines both of them as Vibhakti, it is the Sup Prataya which we call as Vibhakti. The Thing, even though they are technically vibhakti, we refer to them by a special name as Purusha. Sadastu, Rani Vibhaktehe Pravrtto, Trivirma Nimittani Atitani, Karakam, Upapadam, Tathaiva Pratipadikarthaha. Abhre, Sambandhaha, Shashti Vibhaktehe Pravrtto, Sambandhaha Nimittam. Shashti Vibhakti is generally used in sense of relation, and we say off. That indicates the relation between two things. Rabhyaha dutaha is Shashti, the servant of the king or the messenger of the king. Atra prasvami bhavaha sambandhaha. Dutaha is the prasvami raja. So there is a relation between the Shashti Vibhakti and Rabhyaha conveys a relation between raja and duta. That relation is prasvami bhava. Similarly, Rambhadasya putraha. It is stated here. There is a relation between Brahmana and Putra. This is being conveyed by the Shashti Vibhakti. And that is called Janya Janaka Bhava. Brahmana is the Janaka and Braputra is the Janya. Evam Sambandhaha Vibhaktehe Pravrtto Nimittam. Atra Rajyaha Iti Karakam Nasti. Anyasya Padasya Yogena Satya Tatra Vibhaktehe Pravrtti Nasti. Pratipadika Artha Nasti. So you should see that all these are completely different concepts. So, sambandhaha api vibhaktehe pravrttau nimittam bhavati visheshataha shashti vibhaktehe pravrttau. Antimam nimittam bhavati vibhaktehe nimittau pravrttau karmapravachaniyaha. Karmapravachaniyaha iti kachit samya. This is a technical term defined by Panini. We will see again later. Karmapravachaniyaha namake iti purnamasti. अस्माकं पाठ्यक्रमे एव क्रियानिरूपितं सम्बन्धविशेषं द्योतयन्ति. दे इण्डिकेट् अ स्पेशल् रिलेशन्शिप् वित् क्रिया.
तो कर्म कर्म प्रवचनीय संज्ञा काचांचन विभक्ति नाम प्रवृत्तो निमित्तं भवति. सो इन सम केसेस कर्म प्रवचनीय कैन बी द रीजन फॉर अ पर्टिकुलर विभक्ति. एन एग्जाम्पल फॉर कर्म प्रवचनीय इज पर्जन्य जपम अनु प्रावश्यत. सो देर वॉज रेन इमीडिएटली आफ्टर द जप इज वॉट इट मीन. अत्र अनु इत्यस्य कर्म प्रवचनीय संज्ञा विद्यते. सो सिंस अनु हैज कर्म प्रवचनीय संज्ञा उपपद विभक्ति इन असोसिएशन विथ लाइक इन असोसिएशन विथ कहा यू हैड तृतीय इन असोसिएशन विथ कर्म प्रवचनीय यू कैन हैड द्वितीय पंचमी और सप्तमी. But the karma prasaniya is a special concept. They treat it as a separate category. That's all. It is actually a part of upapada vibhakti, a kind of upapada vibhakti. So to sum it up, vibhaktehe vibhaktinam pravritto pancha nimittani sambhavanti. Yatra karakam vibhakti pravritto nimittam sa vibhaktihi karaka vibhaktihi iti uchyate. द्वितीय तृतीय चतुर्थी पंचमी सप्तमी इति पंच कारक विभक्तयः. देयर आर ओनली फाइव कारक विभक्ति. दैट इज फाइव विभक्ति विच आर इंड्यूस्ड बिकॉज ऑफ कारक. द्वितीय कर्म कारक गिव्स द्वितीय विभक्ति. कर्तृ एंड करण कर्तृकारकस्य कर्णकारकस्य च तृतीय विभक्ति. संप्रदान कारकस्य चतुर्थी. उपादान कारकस्य पंचमी. अधिकरण कारकस्य सप्तमी इति साधारण नियमः. इट इज नॉट अ रूल विदाउट एक्सेप्शन. जस्ट अ जनरल लेआउट. क्वचित षष्ठी अपि कारक विभक्ति. इवन नो दीज फाइव आर द मेन कारक विभक्ति. इन सम केसेस षष्ठी कैन आल्सो बी अ कारक विभक्ति. सो कारकम एकम निमित्तम. द्वितीयम निमित्तम भवति उपपदम. यत्र उपपदस्य अन्यस्य पदस्य योगेन विभक्तिः भवति उपपद विभक्ति. अगेन द्वितीय तृतीय चतुर्थी पंचमी सप्तमी इति पंच उपपद विभक्तयः. दीस फाइव कैन बी इंड्यूस्ड इन रिलेशन टू अदर वर्ड्स इन द सेंटेंस. सो दे कैन बी उपपद विभक्ति. प्रातिपदिकार्थः प्रथमा विभक्तेः निमित्तं भवति प्रातिपदिकार्थः. एवं सम्बन्धः षष्ठी विभक्तिः सम्बन्ध निमित्तं भवति. कर्म प्रवचनीयाः कर्म प्रवचनीय योगे द्वितीय पंचमी सप्तमी विभक्तयः भवन्ति. सो दीज आर द फाइव निमित्ता फॉर यूजिंग अ विभक्ति इन अ सेंटेंस. तदानीं वस्तुतः सिद्धान्तकौमुद्याः कारक प्रकरणे किम् अस्ति इति चेत् तत्र विभक्त्यनुसारेण प्रकरणे सूत्राणि निबद्धानि. इवन् दो विशेष कारक प्रकरण सूत्रात् आर् अरेंज्ड् अकॉर्डिंग टू विभक्ति. आदौ प्रथमा विभक्ति उच्यते. प्रथमा विभक्तेः किं निमित्तं प्रातिपदिकार्थः इति इदानीं दृष्टम्. सो प्रातिपदिकार्थादीनां सम्बोधनस्य च विवरणम् अस्ति. सो इन् प्रथमा विभक्ति इति वाट् इस् प्रातिपदिकार्थ वाट् इस् सम्बोधन एक्सेट्र. सो दट् इस् द फस्ट् सब् टापिक् आफ् कारक प्रकरण. ततः द्वितीयातः पञ्चमी विभक्ति पर्यन्तम्. सो नेक्स्ट् यु हेव् इन् आर्डर् द्वितीया विभक्ति तृतीया विभक्ति चतुर्थी विभक्ति एंड पंचमी विभक्ति. इन ईच विभक्ति आदो कारक विभक्ति विचार भवति. ततः उपपद विभक्ति विचार. सो दि पॉइंट इज जस्ट से द्वितीया कैन बी बोथ कारक विभक्ति एंड उपपद विभक्ति. व्हेन द विभक्ति इज बीइंग इंड्यूस्ड बिकॉज ऑफ कारक इट विल बी कारक विभक्ति. व्हेन इट इज इंड्यूस्ड बिकॉज ऑफ सम अदर वर्ड इट विल बी उपपद विभक्ति. सो ऑल दीज विभक्तीज हैव टू कैटेगरीज. आदौ कारक विभक्ति विचारः क्रियते. तत् द्वितीय विभक्तौ आदौ कर्मकारकस्य विचारः तत्प्रयुक्तायाः द्वितीय विभक्तेः विचारः ततः उपपद विभक्तेः विचारः. एवं तृतीया विभक्तौ आदौ कर्तृकारकस्य कर्णकारकस्य च विचारः तदनन्तरम् उपपद विभक्तेः विचारः इत्यादिरीत्या भवति. षष्ठी विभक्तौ आदौ शेषषष्ठि अथवा सम्बन्धषष्ठि तद्विषो सम्बन्ध युद्ध प्रधान निमित्ता फॉर षष्ठी विभक्ति. सो वी सी सच वॉट कैंड ऑफ संबंध एंड वेर ऑल वी हैव षष्ठी. ततः कारक षष्ठी अभी अस्ति. there are certain cases where karaka can lead to shakti vibhakti. So we study both of it. Ante saptami vibhaktam punaha karaka vibhakti hi upakara vibhakti hi. So karaka adhikarana karaka prayukta saptami vibhakti hi adau adhiyate. Tataha saptami vibhakti api upakara vibhakti hi asti tasya api adhiyanam. So if you see, the karaka prakarana is actually vibhaktyartha prakarana. It deals with the meaning of vibhakti. But since karaka is a major part of the discussion, it is called karaka prakarana. So shvaha arabhya prathamaya bhakteha adhyayanam bhavati. Prathamaya bhakti namaka putra putra bhavati sahartha ityadi ritya. So this finally is, I think this is the seventh class. Okay, we finish the introduction and we start with the actual karaka prakarana of Siddhanta Pandi tomorrow. Any questions? Ekas prasna hasti. Prasipadikarthasya pradaya prathama iti uttam. Yatra prathama tatra pratiparikartha. You see that it is not just pratiparikartha. The sutra itself is long. It says pratiparikartha, linga, parimana, vachana, matre, prathama, sambodhaneka. So, prathama is not just in pratiparikartha, it can be in sambodhana and also something else. So, you will see tomorrow. So, no, this will not hold. Shvaha, sadhya chadvadane. As I said, we have like today, Saturday class will be from Chadvadanataha Sapada Sattavadana Paryantam. Punaha Bhanavasarasya Kaksha Sadha Chadvadanataha Sapada Sattavadana Paryantam. Please make sure you are here on time because already tomorrow's class has a reduced duration. So if we lose even more of time, it will be difficult. Kaksha Sadha Chadvadane Sattani Kaksha. Okay? प्रेषयामि अहं प्रेषयामि सेण्ड् इट् टुडे द मेटीरियल् फार् टुमारो एनी क्वेश्चन् यु केन् आस्क् नौ आर् थ्रू ईमेल् आर् एनी टैम् Exactly. Why Prathamaya Bhakti for Tatra Karaka is not a Karaka Vibhakti? It means Dvitiya Bhakti, all in Dvitiya. Okay, it is not dealt with in Prathamaya Bhakti. It will be in Dvitiya, as you see. Yes, you will definitely see why that is so. Why Ramaha Dakshati is not, Ramaha is not Tatra Karaka, or the Vibhakti is not because of Tatra Karaka. It is see that. Purvatana Pathaha, Gurha Pathaha, Sarvethi, you can find it in Yoma Samskrita Pathashala. I am sure everybody has registered, so you will have that list. So, samskritfromhome.in, that's into the learning center. It is a login for one today. Pathaha Santi. Pitika Ityarabhya. Pitika, Shastropayogini Pathashkapadani. Arata Prakarnakya Pitika. If you click on any of the lessons, you can see both PDF and audio. There are tests for each lesson, there is a project, and the homework is designated as a project. So, Ubhayam Bhavati. So everything you can find it there. If you have any problem in accessing materials, you can just send me a mail. Sarvam Tatra Bhavati. ेनाक्षरसमां नायम् अधिगप्तम् हेश्वरात् विघ्नम् व्याकरणम् प्रोक्तम् तस्मै पाणिनये नमः हास्यकारम् वररुचिम् हर्षकारम् पतञ्जलिम् पाणिनिम् सूत्रकारम् च प्रणतोऽस्मिनित्रयम् मुनित्रयम् नमस्कृत्य तदुक्तीश्वरि स्थाप्य च वैयाकरणसिद्धान्तकौमुदीयम् दृश्यते